सर्वधर्मान् परित्यज्य माम् एकम् शरणम् व्रज अहम् वा सर्वपापेभ्यो मोक्षयिष्यामि
को